अथ त्रयोदशोऽध्यायः। अर्जुन उवाच, प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च, एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव। श्रीभगवानुवाच, इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते, एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः। क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत, क्षेत्रक्षेत्रज्ञयोः ज्ञानं यत् तज्ज्ञानं मतं मम। यद्विकारि यतश्च यत् स च यो यत्प्रभावश्च, तत्समासेन मे शृणु। ऋषिभिर्बहुधा गीतं छन्दोभिः विविधैः पृथक्, ब्रह्मसूत्रपदैश्चैव हेतुमद्भिः विनिश्चितै। इन्द्रियाणि दशैकं च पञ्चचेन्द्रियगोचराः, इच्छा द्वेषः सुखं दुःखं संघातः चेतना। अहिंसा शान्तिः आर्यवः ஆச்சாரியோபாசனம் சௌச்சம் ஸ்தைரியம் ஆத்மவினிக்ரஹ இந்த்ரியார்த்தேஷு வைராக்யம் அனஹம் भूतानाम् अचरम् चरमेव च सूक्ष्मत्वात् तदविज्ञेयम् दूरस्थम् च अन्तिके च तत् ज्योतिषामपि तज्ज्योतिः तमसः परम् उच्यते ज्ञानं ज्ञेयं ज्ञानगम्यम् हृदि सर्वस्य विष्ठितम् क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः मद्भक्तः एतत् विज्ञाय मद्भावाय उपपद्यते विकारांश्च गुणांश्चैव विद्धि प्रकृति सम्भवान् कार्यकारण कर्तृत्वे हेतुः प्रकृतिः उच्यते पुरुषद सुखदुःखानां भोक्तृत्वे हेतुः उच्यते